सर्वेभ्यो नमः. यः विषयः प्रवर्तमानः अस्ति सः अस्ति सप्तमी विभक्ति इति. तत्र गतवर्गे वयं सप्तमी विभक्तेः सर्वनामशब्दानां रूपाणि दृष्टवन्तः. ततः पूर्वं वयं तु अकारान्त इकारान्त पुल्लिङ्ग स्त्रीलिङ्ग इति तेषां सप्तविभक्तिरूपाणि दृष्टवन्तः, अभ्यासं कृतवन्तः. अस्तु, तर्हि तत्र किञ्चित् पुनस्मरणार्थम् एकवारं तत्र सप्तविभक्तिरूपं कीदृशं भवति इति मनसि पुनः भवेत् इति कृत्वा तत्र एकवारं पश्यामः. अस्तु, तत्र उषा भगिनी, तत्र देवः इति शब्दस्य सप्तमीविभक्तिरूपं त्रिषु वचनेषु केवलं सप्तमी. हा,
देवे, देवयोः, देवेषु.
हा, अस्तु, समीचीनं. शोभा भगिनी, लता इति
लता, लते, सारी, लता, लतायां, लतयोः, लतासु.
हा, लतायां, लतयोः, लतासु, समीचीनं भगिनि. हा, लतासु. गीताञ्जलि भगिनि, तत्र मुनिः,
मुनिः, मुनौ, मुनयोः,
मुन्योः, मुन्योः,
मुन्योः, क्षम्यतां महोदय, मुनौ, मुन्योः, मुनिषु,
मुनिषु. हा, समीचीनं. हा, रघुपतिमहोदय, गुरुः,
गुरुः, गुरुः, उकारान्त, गुरुः, गुरौ, गुरौ, गुर्योः, गुरुषु, सारि, वकारस्य, गुर्वोः, गुरुषु,
गुरुषु. हा, समीचीनं. हा, वेणुगोपाल महोदय, तत्र नदी,
नदी, नद्यौ, नद्यः.
हा, नदी,
नदी, नद्यौ, नद्यः.
न, न, तत्तु प्रथमविभक्तिरूपं. हा, सप्तमीविभक्तिरूपं.
सप्तमी, नद्यां, नद्योः, नदीषु.
हा, नद्यां, नद्योः,
नद्योः, नदीषु,
नदीषु. हा, नदीषु, दीर्घैकारः. हा, नदीषु,
नदीषु,
समीचीनं महोदय. अस्तु, हा, मेहल्
महोदय,
हा, भानुचैतन्य महोदय, नमस्कारः. पि शीतल् भगिनी, नमस्कारः, स्वागतम्.
नमस्कारः.
नमस्कारः भगिनी. हा, तत्र सप्तमीविभक्तिरूपं कृत् कुर्वन् स्मः. तत्र पुटसङ्ख्या अस्ति, कुत्र स्मः, हा, 67, 68, 69, 70 इति, तत्र गीतासोपाने प्रथमभागे. अस्तु, अस्तु, अग्रे मेहुल् महोदय, तत्र सप्तविभक्ति तत्र किं, हा, माता इति,
माता, सप्तमीभक्ति, मातरि, मात्रोः, मातृषु.
हा, मातृषु. हा, समीचीनं महोदय, समीचीनं. हा, नरेश् महोदय, तत्र हा, किं, हा, क्षेत्रं,
क्षेत्रं, क्षेत्रे, क्षेत्रयोः, क्षेत्रेषु.
हा, इति अस्ति. अस्तु, अग्रे भानुचितनी महोदय, इदानीं सर्वनामशब्दाः, हा, सः, तत् शब्द पुल्लिङ्गे सः इति प्रथमविभक्तौ, तत्र सप्तमविभक्तिरूप विभक्ति रूपं त्रिषु वचनेषु. सः तौ ते प्रथमविभक्तौ
सर्वस्मिन् सर्वयोः सर्वेषु.
न, सर्व इति न, सर्व इति न, सः, सः तौ ते, सः, सः तौ ते प्रथमविभक्तौ. हा, सप्तमीविभक्तिरूपं किम् अस्ति? गत गतवर्गे कृतवन्तः
तस्मिन् तयोः तेषु
हा तस्मिन् तयोः तेषु हा अस्तु शीतल भगिनी अद्य वक्तुम् इच्छति वा अथवा केवलं शृणोति वा
वक्तुम् इच्छति किन्तु न जानामि
अस्तु 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 तत्र पुटसङ्ख्या 69 तत्र पश्यतु हा तत्र पुटसङ्ख्या 69 मध्ये
चन्दनं
69 तत्र तत्र सः तौते इति यत् प्रथमविभक्तौ अस्ति तत् शब्दस्य तत्र सप्तविभक्तिरूपं तस्मिन् तयोः तेषु अपि सा ते ताः तस्यां तयोः ते तासु इति तत् सर्वं दत्तमस्ति अस्तु यदा वक्तुम् इच्छति वदतु अस्तु अस्तु भगिनि अस्तु हा उषा भगिनि तत्र एषः इति रूपम् एषः एतौ एते तस्य सप्तविभक्तिरूपम् एतस्मिन् एतयोः किन्तु एकं रूपं वदतु तत्र एतस्मिन् एतयोः एतेषु अस्तु किन्तु एकमेव मनसि द्वि अस्तु 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 हा अस्तु शोभा भगिनी तत्र सा ते ताः इति तस्य सप्तविभक्तिरूपम्
आम् महोदय तस्यां तयोः तासु
हा तस्यां तयोः तासु अस्तु गीताञ्जलि भगिनी भवान् इति शब्दस्य
भवान् भवन्तौ
भवत् शब्दस्य पुल्लिङ्गरूपं हा भवत्
भवत् मम प्रियशब्दः
तत्र पुटसङ्ख्या 69 मध्ये दत्तमस्ति
ओके ओके
नवषष्टिः तमे पुटे अस्ति
भवति भवतोः भवत्सु
हा समीचीनम् अस्तु हा अग्रे रघुपति महोदय तत्र स्त्रीलिङ्गे भवति इति पदस्य
स्त्रीलिङ्गे भवत्यां वा भवत्याम् एकनिमिषं
नदीशब्दः
भवत्यां भवत्योः भवतीषु वा
वेणुगोपाल महोदय उक्तवान् खलु नद्यां नद्योः नदीषु भवत्यां भवत्योः भवतीषु समीचीनं महोदय अस्तु अग्रे वेणुगोपाल महोदय अस्मत् शब्दः अहम् आवां वयं तस्य सप्तविभक्तिरूपं
मयि आवयोः अस्मासु
हा समीचीनं मेहुल् महोदय युष्मत् शब्दस्य सप्तविभक्तिरूपं
युष्मद् त्वयि युवयोः युष्मासु
हा युष्मासु इति अस्ति हा अस्तु हा इदानीं तत्रैव किञ्चित् अग्रे गच्छामः तत्र हा नरेश् महोदय इदानीं एषः देवः तस्य एषः देवः तस्य सप्तविभक्तिरूपम्
एतस्मिन् देवे एतयोः देवयोः एतेषु देवेषु
हा समीचीनं महोदय अस्तु भानुचेतनी महोदय तत्र एषा लता
एषा लता एतस्यां लतायां एतयोः लतयोः एतासु लतासु
हा समीचीनम् अस्तु हा अग्रे उषा भगिनी, सा भाषा,
सा भाषा, तस्यां भाषे,
भाषा भाषा स्त्रीलिङ्गे,
रमायां तस्यां भाषायां तयोः भाषयोः तासु भाषासु,
हा तासु भाषासु, अस्तु. शोभा भगिनि, सा नदी,
तस्यां नदी नद्यौ,
नद्यां नद्यां
नद्यां नदी, तस्यां नद्यां तयोः नद्योः तासु नदीषु,
हा तासु नदीषु, हा समीचीनं भगिनि, तासु नदीषु. हा गीताञ्जलि भगिनि, सुन्दरी सीता,
सुन्दरी सीता, सीतायां सुन्दर्यां सीतायां सुन्दर्योः सीतयोः सुन्दरासु सीतासु,
सुन्दरीषु, सुन्दरीषु,
ओ सुन्दरीषु,
नदी नदीषु,
सुन्दरीषु सुन्दर्योः लतयोः सुन्दरीषु
सीतासु, सीतासु,
अस्तु महोदय, सुन्दरीषु लतासु,
हा अथवा सीतासु, हा समीचीनं भगिनि, हा अस्तु, हा हा अस्तु. अग्रे रघुपति महोदय, कः मुनिः,
कस्मिन् मुनौ कयोः मुनयोः कयोः मुन्यो मुन्योः अपिषु अपि अपि केषु केषु मुनिषु,
केषु मुनिषु, हा समीचीनं महोदय, हा केषु मुनिषु, अस्तु. अग्रे वेणुगोपाल महोदय, तत्र भवती भवती उमा इति,
उमा भवत् भवत्याम् उमायां भवत्यो भवत्योः उमयोः भवतीषु उमयोः भवतीषु उमासु,
हा भवतीषु उमासु, समीचीनं महोदय, हा हा. मेहुल् महोदय, का देवी,
का देवी, कस्यां देव कस्यां देव्यां कयोः देवयोः
देव्योः
देव्योः येषां देवां
कासु कासु
कासु कासु देवीषु,
हा देवीषु 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 कासु देवीषु, हा समीचीनं महोदय, हा. नरेश महोदय, तत्र मधुसूदन महोदय, नमस्कारः महोदय,
मधुसूदन
महोदय नमस्कारः, वंशीसुधा भगिनी नमस्कारः, हा अस्तु. इदानीं हा पृच्छामि, भवन्तमपि पृच्छामि, अस्तु. भानुचेतनी महोदय, अग्रे तत्र अहं देवः,
महोदय,
अहं देवः, तस्य सप्तविभक्तिरूपम्
अहं देवः, आं महोदय, अहम् अस्मिन्
अहम् इति किम् अस्ति, अहं पदस्य सप्तविभक्तिरूपं किम् अस्ति, अहं
महोदय, मयि मयि देवे आवयोः देवयोः अस्मासु देवेषु.
हा इति समीचीनम्. अस्तु मधुसूदन महोदय, इदानीं तत्र भवान् अस्तु प्रथमतया एतत् कुर्मः. एषः मुनिः.
एतस्मिन् मुनयो
मुनौ
एतस्मिन् मुनौ एतयोः
मुनयोः एतेषु मुनिषु मुनिषु. हा, तत्र एकवारम् एतत् इति तस्य पुल्लिङ्गरूपं किम् अस्ति सप्तविभक्ति? एतस्मिन् एतेषु. हा, स्त्रीलिङ्गे?
एतस्याम् एतयोः एतासु.
हा, अत्र एतेषु पुल्लिङ्गे, एतासु स्त्रीलिङ्गे. हा, समीचीनं महोदय. अस्तु, हा वंशीसुत भगिनि, हा तत्र
महोदय,
तत्र भवती उमा.
भवती उमा, भवती उमायां
भवतो. भवती अपि, भवती अपि तस्य अपि विभक्ति.
क्षम्यतां, भवत्याम् उमायां भवत्योः उमायोः उमयोः भवतीषु उमासु.
हा, भवतीषु
तीषु
उमासु. हा, समीचीनं भगिनि. हा, समीचीनम्. अस्तु, तत्र किञ्चित् मिश्रणाभ्यासः कुर्मः इति एव आशा, तावदेव. अस्तु, इदानीम् अग्रे गच्छामः. तत्र गृहपाठः आसीत्, तत्र सप्ततिः, तत्र पुटे, सप्ततितमपुटे, तत्र वयं प्रायशः सप्तम अभ्यासं कृतवन्तः वा पूर्वमेव गतवर्गे? सर्वं कृतवन्तः वा तत्र? किञ्चिदेव. हा, अतः तत्र लाभः अस्ति खलु पुनरेकवारं कुर्मः चेत्. अतः तत् कृत्वा अष्टममपि कृत्वा, अष्टमं नवमं तत्र अभ्यासत्रयं कृत्वा तदनन्तरं कथां पठामः इति मन्ये. अस्तु, अत्र हा शोभा भगिनी तत्र आरम्भं करोति वा सप्तमम्?
आं महोदय. बालः यस्यां वात्सल्यं प्रकटति सा तस्य माता. अहम् एकवाक्यं कृतवती.
ओ, भवती एव. भवती एव. अस्तु 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 अस्तु, समीचीनं भगिनि. अस्तु, पुनः एकवारं भगिनि वाक्यं किम् अस्ति?
बालः तत्र यस्यां,
या इति पदस्य,
यस्यां वात्सल्यं प्रकटति, प्रकटयति सा तस्य माता.
हा, समीचीनं भगिनि, समीचीनं, बहु समीचीनम्. अस्तु, हा गीताञ्जलि भगिनि.
आं महोदय,
सप्तमम् अभ्यासः तत्र वाक्यं किमपि करोति वा?
आं महोदय, बालः एतस्मिन् आदरं करोति.
आदरं करोति, एतस्मिन् आदरं करोति. रघुपति महोदय.
आं महोदय, भवान् प्रीतिं, भवान् प्रीतिं भवान् भवान् अस्तु, अस्तु एकनिमिषं, भवान् तस्य भवानस्य सप्तमी व्यक्ति. ओके, भवती भवती प्रीतिं भवती भवती किमस्ति महोदय? भवती
भवती एव सत्यं. भवती, भवान् शब्दस्य सप्तविभक्तिरूपम् एकवचने भवती इति अस्ति. तत्र वाक्यम् उदाहरणं पश्यति,
उदाहरणं, उदाहरणं, बालः एतस्मिन् प्रेषयति.
एषः किं भवति एतस्मिन् भवति
बालः अस्तु बालः भवति आदरं प्रकटयति
हा आदरं प्रकटयति समीचीनं महोदय हा तादृशवाक्यमेव अस्तु वेणुगोपाल महोदय
बालः कस्मिन् स्नेहं करोति
कस्मिन् स्नेहं करोति समीचीनं महोदय मेहुल् महोदय
बालः तस्यां स्नेहं प्रकटयति
हा तस्यां स्नेहं प्रकटयति समीचीनं महोदय नरेश महोदय
बालः मयि श्रद्धां प्रदर्शयति
हा मयि श्रद्धां प्रदर्शयति समीचीनं महोदय हा भानुचितनी महोदय
किमपि महोदय
हा तत्र तत्र अनेकानि वाक्यानि रचयितुं शक्नुमः एकं करोतु
वयं श्रद्धां
अस्तु किन्तु बालः इति बालः इति आरभ्य हा बालः इति अस्ति द्वितीयस्तम्भे यत् पदं दत्तमस्ति तस्मिन् एकं चित्वा तस्य सप्तविभक्ति कृत्वा तृतीयस्तम्भे यत् एकं पदं चित्वा तदनन्तरं चतुर्थस्तम्भे एकं पदं चित्वा वाक्यं रचनीयमस्ति
बालः किन्तु बालः वयं
वयं वयम् इति किं भवति वयम् इति पदस्य
सप्तविभक्ति श्रद्धेषु
न न तत्र तत्र वदतु महोदय किं किम् अस्ति बालः अस्मासु
बालः अस्मासु श्रद्धां प्रदर्शयति
हा तावदेव अस्तु समीचीनं महोदय अस्तु मधुसूदन महोदय
बालः एतस्यां एतस्यां मैत्रीं करोति
एतस्मिन् एतस्यां मैत्रीं करोति समीचीनं महोदय वंशीसुधा भगिनी
आं महोदय बालः ते इति शब्दस्य बालः तेषु शङ्कां करोति अथवा बालः तयोः शङ्कां करोति द्वे
अस्तु अस्तु हा स्त्रीलिङ्गे अथवा पुल्लिङ्गे इति समीचीनं भगिनि हा समीचीनम् अस्तु हा तयोः इति अत्र भवति अस्तु तत्र कोऽपि वदति वा किमर्थं तृतीयस्तम्भे अस्तु प्रथमतया हा तृतीयस्तम्भे यानि पदानि दत्तानि तेषां विभक्ति का द्वितीयविभक्ति वा किमर्थं
कर्मपदं
हा कर्मपदम् अस्ति हा करोति अथवा प्रदर्शयति प्रकटयति तस्य कर्मपदं तृतीयस्तम्भे अस्ति अतः सर्वत्र द्वितीयाविभक्तिरूपमेव अस्ति कर्मपदम् इति कृत्वा अस्तु समीचीनम् अस्तु सर्वे उक्तवन्तः इति मन्ये सप्तम अभ्यासे अस्तु अग्रे गच्छामः तत्र वंशीसुधा भगिनी अग्रिमं करोति वा
अङ्गे ग्रहणं ताडनं कोष्टके विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण यथोदाहरणं रिक्तस्थानं पूरयत् उदाहरणं शत्रुः तं कण्ठः कण्ठे गृह्णाति
तत्र वाक्यं किं भवति शत्रुः तं
कण्ठे गृह्णाति
हा इति वाक्यं यत् पदं दत्तमस्ति तस्य
आम् महोदय प्रथममस्ति सः भवन्तं वक्षस्थलं प्रहरति वक्षस्थले प्रहरति सः भवन्तं वक्षस्थले प्रहरति
हा इति समीचीनं भगिनि. हा मधुसूदन मोदी अग्रे.
महोदय, दुःशासनः द्रौपदी एषा गृह्णाति. दुःशासनः
द्रौपदीं
केशायां केशासु गृह्णाति. केशासु
केशः अस्ति तत्र. केशः अस्ति वा केशः अस्ति वा पुल्लिङ्गे अस्ति. पुल्लिङ्गशब्दः अस्ति. पुल्लिङ्गशब्दः अस्ति.
केशेषु केशेषु अत्र पुल्लिङ्गशब्दः बहुवचनं.
सत्यं सत्यं. अतः केशेषु
केशेषु दुष्टात्मनः द्रौपदीं केशेषु गृह्णाति.
हा समीचीनं महोदय. हा अस्तु अग्रे भानुचितनी महोदय.
भीमः कीचकं मस्तकं ताडयति. भीमः कीचकं मस्तके ताडयति.
हा समीचीनं महोदय. हा नरेश महोदय अग्रे.
महोदय पादौ द्विवचनम् अस्ति. सप्तमी विभक्ति द्विवचनं पादयोः. भवान् मां पादयोः किमर्थं प्रहरति.
समीचीनं महोदय. मेहुल् महोदय अग्रे.
योधः शत्रुम् उदरे ताडयति.
हा योधः शत्रुम् उदरे ताडयति. समीचीनं महोदय. वेणुगोपाल् महोदय अग्रे.
आरक्षकः चोरं कण्ठः गृह्णाति. आरक्षकः चोरं कण्ठे गृह्णाति.
कण्ठे गृह्णाति. अस्तु. हा इदानीं किञ्चित् क्लिष्टः अभ्यासः. रघुपतिमहोदय, भवान् एव एकं वाक्यं रचयतु तत्र प्रहरति ताडयति इति.
आरक्षकः चोरं दण्डेन ताडयति.
दण्डेन ताडयति न सप्तमीविभक्तिरूपं.
चोरं
गृह्णाति प्रहरति ताडयति इति.
ताडयति. अस्तु. आरक्षकः चोरं
दण्डे ताडयति.
दण्डे ताडयति इत्युक्ते अन्यत् भवति खलु. दण्डेन ताडयति, किन्तु दण्डे ताडयति इत्युक्ते तत्र एव ताडयति.
आरक्षकः चोरं कारगृहे क्षिपति.
कारगृहे क्षिपति. अस्तु अस्तु. अस्तु किन्तु क्रिया अग्रे. हा अस्तु अस्तु. इदानीं गीताञ्जलि भगिनी वाक्यं रचयतु, किन्तु क्रियापदं प्रहरति गृह्णाति ताडयति भवितव्यम्.
योधः
शत्रुं
शत्रुं योधः शत्रुं शीर्षे प्रहरति.
हा शीर्षे प्रहरति. अस्तु समीचीनं. हा शोभा भगिनी.
हा महोदय. किमपि.
हा हा किन्तु प्रहरति गृह्णाति ताडयति.
भवान् मां हस्तयोः किमर्थं ताडयति.
अस्तु समीचीनं भगिनी. हा हा अग्रे उषा भगिनी.
बलवान् निर्धनः इत्युक्ते समीचीन लैक् बलवान् बलवान् निर्धनः इत्युक्ते
बलवान् निर्धन निर्धनं हस्तेन नो हस्त हस्तयोः
हस्तः हस्तयोः इति द्विवचने
हस्तयोः प्रहरति
हा हस्तयोः प्रहरति समीचीनं भगिनि हा समीचीनम् अस्तु हा तत्र प्रहरति अत्र अग्रे अवधेयमस्ति तत्र वेणुगोपाल् महोदय अवधेयं यत् अस्ति तत् पठति वा प्रहरति कोऽपि वदति वा प्रहरति इत्युक्ते किं
प्रहरति इत्युक्ते
गृह्णाति इत्युक्ते अस्तु हा अस्तु हा अपि ताडयति अस्तु शीतल भगिनी समीचीनम् अस्तु
धन्यवादः
अस्तु अग्रे वेणुगोपाल् महोदय
आं महोदय अवधेयं यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी विभक्तिः भवति
हा अस्तु तत्र वाक्यस्य अर्थः कः इति किञ्चित् वदति वा एतत् इदानीम् उदाहरणम् अपि वयं दृष्टवन्तः खलु
महोदय ग्रहणं ताडनं
प्रहरणं भवति
तत्र
कस्मिन् अङ्गे
भवति तत्र अङ्गस्य सप्तविभक्ति रूपं
स्थापयामः तद् उपयुज्य वाक्यं
कुर्मः
अस्तु हा अस्तु सर्वे अवगच्छन्ति खलु अवधेयं यत् अस्ति प्रश्नः अस्ति वा तत्र प्रायशः स्पष्टः अस्ति तत् अवधेयम् अस्तु अग्रे मेहुल् महोदय तत्र अग्रिम अभ्यासः पठति वा
सः कः कस्मिन् निपुणः कुशलः यथोदाहरणं लिखत प्रथम उदाहरणमस्ति कर्णः धनुर्विद्यायां निपुणः द्वितीयवाक्यम् अस्ति दुर्योधनः गदायुद्धे निपुणः
गदायुद्धे दुर्योधनः निपुणः समीचीनं महोदय अस्तु अग्रे उषा भगिनी कर्णः दुर्योधनः कृतम् अग्रे नलः पाककलायां निपुणः समीचीनं भगिनी शोभा भगिनी अग्रे
विदुरः नीतिशास्त्रे निपुणः
विदुरः नीतिशास्त्रे निपुणः समीचीनं भगिनी गीताञ्जलि भगिनी
शकुनिः धूतक्रीडायां द्यूतक्रीडायां निपुणः
द्यूतक्रीडायां निपुणः समीचीनं भगिनी रघुपति महोदय
बृहन्नला अश्वशिक्षायां निपुणा
बृहन्नला
वीणावत्
धनुर्विद्या अर्जुनः धनुर्विद्या किन्तु बृहन्नल
बृहन्नल एव न
हा बृहन्नल हा सत्यं किन्तु
अर्जुन अस्तु
तत्र उत्तम इति तत्र सः सङ्गीतमेव पाठितवती इति मन्ये
शकुनि नकुल मया मयः अस्तु मया शिल्पकला अस्तु बृहन्नल वीणावादन वीणावादने वीणावादने निपुणा अस्ति
निपुणा अस्ति समीचीनं 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 महोदय अस्तु अग्रे वेणुगोपाल महोदय
शकुनिः दूतक्रीडायां
नकुलः इदानीं
नकुलः नकुलः अश्वशिक्षायां निपुणः
अश्वशिक्षायां
निपुणः
निपुणः समीचीनम् अस्तु अग्रे मधुसूदन महोदय मयः
मयः
यत् वशे यत् न कृतं
कलायाः आवश्यकं
शिल्पकला
मयः शिल्पकलायां
निपुणः समीचीनं समीचीनं महोदय अस्तु अत्र भानुचितनी महोदय अग्रे तत्र अवधेयं यत् अस्ति तत् एकवारं पठति वा
महोदय अवधेयं यदा जनेषु निपुणता कुशलता सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति
अस्तु अवगच्छति श्लोकं महोदय अवगच्छति खलु तत्र अवधेयम् अवधेयं तत्र वाक्यम् अवगच्छति खलु
सम्पूर्णं महोदय
अस्तु स्वशब्दैः एकवारं वदतु महोदय
जनेषु ये उत्तमगुणः अस्ति यदा निपुणता वा कुशलता वा सामर्थ्यं वा तद् बहिः वक्तव्यं चेत् तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः
इति तादृश वाक्यं भवति समीचीनं महोदय इदानीम् एकम् उदाहरणं भवान् एव वदतु भवतः मित्रम् अथवा भवतः पिता इति किमपि उपयुज्य निपुणः कुशलः समर्थः इति
महोदय महोदय मम मित्रः वाक्कला समीचीनं महोदय
वाक्कलायां
वाक्कलायां कुशलः
वाक्कला इत्युक्ते किम् अत्र अस्तु 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 वाक्कला इति चिन्तयामः अस्तु वाक्कलायां कुशलः अथवा निपुणः समीचीनं महोदय कुशलः समीचीनं नरेश महोदय तादृश एकं वाक्यं
महोदय तस्य भार्या पाककलायां निपुणा अस्ति
समीचीनं महोदय अस्तु वंशीसुधा भगिनी
कुशल एव शब्दः महोदय
किमपि कुशल कुशलः कुशला निपुणः निपुणा समर्थः समर्था
भवान् संस्कृतपठने कुशलः
इति अस्तु तादृशवाक्यं समीचीनं मधुसूदन महोदय
जनेषु जनाः छात्राः छात्राः संस्कृतपठनं सामर्थ्यं
छात्रः संस्कृतपठने
पठने सामर्थ्यं
समर्थः समर्थः तत्र निपुणता निपुणः कुशलता कुशलः सामर्थ्यं समर्थः इति समीचीनं महोदय अस्तु अत्र मेहुल् महोदय
अहम् एकस्मिन् दिने संस्कृतभाषायां निपुणः भविष्यामि
समीचीनं महोदय अस्तु वेणुगोपाल् महोदय
नागार्जुनः बौद्धदर्शनशास्त्रे निपुणः
समीचीनम् आसीत् अभवत् इत्युक्ते सः पूर्वं नासीत् यदि वयं तद् वाक्यमपि समीचीनमेव अस्ति किन्तु यथा इत्युक्ते नागार्जुनस्य कथा भवति सः एतत् एतत् सर्वं कृतवान् तदनन्तरं सः निपुणः अभवत् इति किन्तु यदि केवलं वयं वक्तुम् इच्छामः ओ सः तु निपुणः तस्मिन् सन्दर्भे सः बौद्धधर्मे निपुणः आसीत् इति रघुपतिमहोदय अग्रे
महोदय विराटः क्रिकेट् क्रीडायां निपुणः अस्ति
अस्तु महोदय गीताञ्जलि भगिनी
आं महोदय मम पुत्र्याः कलाकारे निपुणता अस्ति
निपुणता अस्ति अथवा मम पुत्री निपुणा अस्ति इति तादृशवाक्यमपि
मम पुत्री निपुणा अस्ति
कस्मिन्
कलाकारे निपुणा
कलाकारे निपुणा अस्ति समीचीनं भगिनि
निपुणः समीचीनं निपुणा
निपुणा स्त्रीलिङ्गे अस्ति खलु तत् विशेषणं भवति
दीर्घ
विशेषणं भवति सः निपुणः
निपुणा अस्ति
सा निपुणा इति विशेषणं विशेषभावः तत्र शोभा भगिनी
महोदय अत्र मम एकः प्रश्नः अत्र तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्ति इत्युक्ते अन्य अर्थमपि भवति वा महोदय यथा रामे धनुर्विद्या निपुणता अस्ति
धनुर्विद्यायाः नैपुण्यम् अस्ति
तादृशमपि तदपि वक्तुं तदपि तत् समीचीनमेव अस्तु तत्र तत्र अन्यत् अर्थमपि अस्ति एतदपि वयं वक्तुं शक्नुमः किन्तु तादृशरूपम् अत्र न दत्तमस्ति अत्र एकं रूपं दत्तमस्ति कर्णः धनुर्विद्यायां निपुणः इति किन्तु अन्यदपि वक्तुं शक्नुमः कर्णे धनुर्विद्यायाः निपुणः निपुणता अस्ति इति किन्तु तत्र कर्णे इति सप्तमी अपि कस्य निपुणता इति अत्र षष्ठी अपि भवति
अहं चिन्तयामि तद् यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति इति
तत्र सत्यं सत्यं तादृश अर्थः अत्र वाक्ये तादृश अर्थः अपि अस्ति सत्यं सत्यं
महोदय
सत्यं भगिनि तादृशमपि तत्र तस्मिन् निपुणता अस्ति तस्यां कुशलता अस्ति एतस्यां सामर्थ्यम् अस्ति इति तादृशं वाक्यमपि वयं वक्तुं शक्नुमः सत्यं भगिनि
आं महोदय अहं अन्यरूपेण कृष्णः वेणुवादने कुशलः
कृष्णः वेणुवादने कुशलः समीचीनं भगिनि समीचीनं तदेव अन्यत् रूपं कृष्णे इति
कृष्णे वेणुवादनायाः
न सत्यं सत्यं
वेणुवादनायाः कुशलता
वेणुवादनं
वेणुवादनस्य कुशलता
षष्ठी भवति
षष्ठी भवति
किन्तु वेणुवादनं
कृष्णे कृष्णः कृष्णे तत्र एव सप्तमी कृष्णे वेणुवादना कुशलता भवति
अथवा
वेणुवादनकुशलता इति भवति समस्तपदं वेणुवादनकुशलता
तदपि वक्तुं शक्यते समीचीनं
तदेव अहं
चिन्तितवती समीचीनं समीचीनं तत्र संयुक्तपदं कृत्वा षष्ठी त्यक्तुं तस्य वक्तव्यं न न भवति समीचीनम् उषा भगिनी
आम् महोदय ये आर् रेहमान् सङ्गीतकलायां निपुणः अस्ति
कलायां निपुणः अस्ति समीचीनं भगिनि अस्तु अस्तु अत्र श्लोकः अस्ति तद् कृत्वा वयं कथां पठितुं शक्नुमः इति मन्ये अस्तु तत्र रघुपतिमहोदय भवान् अत्र पठतु तत्र
एतं श्लोकम् उच्चैः पठत कस्तूरितिलकं ललाटफलके वक्षस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे मुक्तावलीं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः
इति अस्तु तत्र प्रथम पदद्वयं कस्तूरितिलकं ललाटफलके इत्युक्ते
ललाटे कस्तूरितिलकं कस्तूरितिलक अस्ति कृष्णस्य अस्ति
श्रीकृष्ण
कस्मिन् अङ्गे किं धरति इति वदत यथा श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति कृष्णस्य वृक्षस्थले कौस्तुभम् अस्ति कौस्तुभं धरति कृष्णः वृक्षस्थले कौस्तुभं
श्रीकृष्णः
श्रीकृष्णः वृक्षस्थले वक्षस्थले कौस्तुभं धरति
वक्षस्थले कौस्तुभं धरति समीचीनं महोदय शोभा भगिनि
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं
इदानीं नासाग्रे नवमौक्तिकम् इति
नासाग्रे नवमौक्तिकं
तत्र वाक्यं किं भवति श्रीकृष्णः
श्रीकृष्णः नासाग्रे नासस्य अग्रे अस्ति वा महोदय
नासस्य
नासस्य अग्रे नवमौक्तिकं धरति अपि करतले वेणुं धरति करे कङ्कणं धरति
करे कङ्कणं धरति समीचीनं भगिनि अस्तु अग्रे मेहुल् महोदय
आम् महोदय सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिम् इत्युक्ते सर्व अङ्गे कृष्णः हरिचन्दनं धरति अपि च कलयन् कण्ठे च मुक्तावली मुक्तावली इत्युक्ते एकः हारः अस्ति तत्तु तस्य तस्याः कण्ठे अस्ति
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे मुक्तावलिम् इति अस्तु अग्रे अस्तु अग्रे धन्यवादः महोदय अग्रे नरेश् महोदय
गोपस्त्री परिवेष्टितौ विजयते गोपालचूडामणिः
तत्र सप्तविभक्तिरूपम् अस्ति वा तत्र
अस्ति विजयते
विजयते विजयते सप्तमी नास्ति महोदय आत्मनेपदीरूपम् अस्ति विजयते सः विजयते कृष्णः गोपालचूडामणिः इति तत्र विशेषणं तस्य गोपालचूडामणिः इत्युक्ते श्रीकृष्णः एव सः विजयते गोपस्त्रीपरिवेष्टितः परिवेष्टितः इत्युक्ते तस्य परितः गोपस्त्री इति पुल्लिङ्गे किं क्षम्यताम् इति बहुवचने किं भवति गोपस्त्री इति पदस्य बहुवचनरूपं
गोपस्त्रयः
हा गोपस्त्रयः सन्ति कृष्णस्य परितः
परितः गोपस्त्रयः सन्ति गोपालचूडामणि
तत्र तत्र एतदपि अस्ति परिवेष्टित परिवेष्टित इत्युक्ते केवलं सरौण्डेड् बै इति प्रायश तदति अन्यत् अर्थम् अन्यः अर्थः अस्ति वा तत्र परिवेष्टितः इति
परिवेषयति इत्युक्ते सर्विङ्ग् इति अस्ति वा महोदय
डान्सिङ्ग् अपि अस्ति महोदय
अस्तु अस्तु हा अस्तु अतः तत्र तस्य परितः कृष्णस्य परितः गोपस्त्रयः नृत्यन्ति इति वक्तुं शक्नुमः अस्तु समीचीनम् अस्तु इदानीं सप्तविभक्तिरूपस्य बहु किमपि अभ्यासं वयं कृतवन्तः अतीतवन्तः किमस्ति कोऽपि वदति वा कलयन् इति
एक इन्स्ट्रुमेण्ट् अस्ति कलयन् कलयन् चक्र चक्र
वा
इन्स्ट्रुमेण्ट्
कण्ठे अस्ति
कण्ठे अस्ति
कण्ठे
सर्वाङ्गे हरिचन्दनं च
हरिचन्दनं च कलयन्
कण्ठे
तत् किञ्चित् द्रष्टव्यमस्ति अहं न जानामि वदति वा सत्यं भगिनि कलयन् इति किमस्ति इति द्रष्टव्यमस्ति भगिनि सत्यं
महोदय अहं चिन्तयामि सर्वाङ्गे हरिचन्दनञ्च कलयन् यथा पठन् कलयन्
कलयन् इत्युक्ते
किमस्ति महोदय मिडल् मध्ये किमस्ति
टायिङ्ग् अराउण्ड् हि वास् हि इस् वेरिङ्ग् अराउण्ड् हिस् नेक् हि इस् वेरिङ्ग् मुक्तावधि कलयन् इत्युक्ते टायिङ्ग् वेरिङ्ग् अराउण्ड्
धन्यवादः महोदय मिडल् मध्ये धन्यवादः
कलयति फर्निश् वित्
अस्तु कलयन् इति अस्तु तत् समीचीनम् अस्ति समीचीनं
धातु किं महोदय
कलयति इति बहु बहु अर्थ अस्ति किन्तु फर्निश् वित् अपि च दत्तं
अस्तु समीचीनमेव अस्ति अस्तु धन्यवादः
महोदय धातु किम् अस्ति महोदय
धातु मेहुल् मध्ये
कलगतौ संख्याने किमपि अस्ति अत्र कलगतौ संख्याने
न न कलयति इति प्रायशः अस्ति कलयन् इति शत्रान्तृत्वम् अस्ति चेत् कलय किमपि तादृशम् अस्ति महोदय
उरादिगणे अस्ति द्वयोः कलयेत्
एतत् किम् अस्ति महोदय
चुरादिगणे अस्ति इति दत्तमस्ति
चुरादिगणे
इति कृदन्तरूपमाला
अस्तु समीचीनम् अस्तु इदानीम् अन्य कोऽपि प्रश्नः अत्र अस्तु इदानीं समीचीनम् इदानीं कथां पठामः अस्तु सर्वे कथां प्राप्तवन्तः वा
महोदय एकः प्रश्नः ललाटफलके यदि केवलं ललाटे दत्तं तत्तु समीचीनं वा
ललाटफलके ललाटं समीचीनम् इति मन्ये भगिनि.
फलक इव ललाटः,
फलक इव ललाटः अस्ति इति कृत्वा फोर् हेड् अस्ति खलु, अतः
धन्यवादः.
अस्तु, इदानीं कथं पठामः? तत्र भगवतः सृष्टौ इति तत् ईमेल् द्वारा प्रेषितम् आसीत्. तत्र कः एतावत् गीताञ्जलि भगिनी पठति वा तत्र कथा?
द्विसप्ततिः महोदय,
न तत्र एकां कथाम् अहं प्रेषितवान् ईमेल् द्वारा, भगवतः सृष्टौ इति, तत्र स्मारणपत्रे. अस्तु
अस्तु अस्तु महोदय, अस्तु. भगवतः सृष्टौ न सन्ति दुष्टाः. काचित् कक्ष्या अध्यापकः ईश्वर निन्दकः.
क्षम्यतां महोदय, कुत्र अस्ति कथा?
शीतल भगिनी, एतत् अद्य अथवा ह्यः भवती स्मरणपत्रम् ईमेल् प्राप्तवती खलु अस्य वर्गस्य?
ईमेल् प्राप्तवती,
तत्र एव अहम् अटाच्मेण्ट् इति अस्ति.
धन्यवादः.
अस्तु.
काचित् कक्ष्या अध्यापकः ईश्वरनिन्दकः. सः कदाचित् अवदत् ईश्वरः पक्षपाति, तस्य सृष्टिः न श्रेष्ठा, सज्जनान् इव दुर्जनान् अपि सृजति सः. सः निष्पक्षपातव्यवहारवान् यदि स्यात् तर्हि दुष्टानां सृष्टिं निवारयितुम् अशक्ष्यत् एव. तावता छात्रेषु कश्चन उत्थाय अवदत् श्रीमन् भगवता दुष्टाः न सृष्टा एव.
समीचीनं भगिनि. अस्तु, अग्रे वेणुगोपाल् महोदय.
कथम् एव वदति भवान्, लोके असङ्ख्याः दुष्टाः दुष्टाः ये दृश्यन्ते, ते केन सृष्टाः? भगवता एव ननु अध्यापकः प्रश्नं अकरोत् ते भगवता एव सृष्टाः इति तु सत्यं, किन्तु ते सृष्टाः न दृष्टत्वेन.
समीचीनं
विलक्षणः.
विलक्षणः वादः, विलक्षणवादः तव दृष्टत्वेन न दुष्टत्वेन न सृष्टाः इत्यस्य तेषां सृष्टा ईश्वरः एव इत्यतः तेषु स्थिताः दोषाः अपि ईश्वरकारणात् एव आगताः नन्ति. श्रीमान् लोके
श्रीमन्
लोके
अन्धकारः
अस्ति इत्यत्र किं भवान् विश्वसिति न यतः मया अपि तर्कशास्त्रं पठितमस्ति प्रकाशस्य अभावः एव अन्धकारः अभावः अन्धकारः अतः अन्धकार नामकः पदार्थः
पार्थक्येन नास्ति. समीचीनं महोदय, समीचीनं. हा, शीतल भगिनी पठितुम् इच्छति वा अत्र?
आम् महोदय.
हा, अग्रे पठतु.
न यतः मया अपि तर्कशास्त्रं पठितम् अस्ति प्रकाशस्य अभावः एव अन्धकारः अतः अन्धकार नामकः पदार्थः पार्थक्येन नास्ति. चैत्यनामकस्य पदार्थस्य विषये भवतः अभिप्रायः कः? शैत्यमपि न पदार्थः, यत्र उष्णता न भवति तत्र दृश्यते शैत्यम्, अतः उष्णतायाः अभावः एव शैत्यपदेन निर्दिश्यते, सः पृथक् पदार्थः न.
हा, इति समीचीनं भगिनी. हा, अस्तु, अग्रे उषा भगिनी पठति वा?
आम् महोदय. लोके यथा अन्धकारनामकः शैत्यनामकः वा पदार्थः नास्ति, तथैव दुष्टाः अपि न सन्ति एव भगवतः सृष्टौ. ये दुष्टाः लोके दृश्यन्ते तेषां सृष्टिकर्ता किम् अन्यः एव? क्रोधेन अपृच्छत् अध्यापकः.
धन्यवादः भगिनि. हा, अस्तु, वंशीसुधा भगिनी अग्रे.
आम् महोदय. लोके वस्तुतः सन्ति सर्वे सज्जनाः एव. स्नेहस्य करुणायाः अनुकम्पस्य वातावरणस्य संस्कारस्य शिक्षणस्य प्रबोधनस्य च अभावात् केचन दुष्टानां प्राप्नुयुः. दुष्टतां प्राप्नुयुः. स्नेहादिना परिष्कृताः चेत् तेऽपि उत्तमाः एव भवेयुः. अतः तेषु दुष्टतायाः यत् कारणं स्यात् तत् अपनेतव्यम् आदौ तदा लोके दुष्टता एव न भवेत्. भगवता तु उत्तमाः एव सुच्यन्ते.
समीचीनं भगिनि. अस्तु, मेहुल् महोदय समापयतु तत्र.
स्वोद्वेगं वदतः तस्य किशोरस्य आत्मविश्वासपूर्णं मुखं निर्निमेषम् अपश्यत् अध्यापकः. तस्य मुखात् प्रतिवचनं किमपि न निर्गतम्. सः किशोरः एव अग्रिमे काले स्वामी विवेकानन्दः इति ख्यातः अभवत्.
हा, इति समीचीनं. धन्यवादः महोदय. हा, अस्तु, तत्र इदानीं पङ्क्तिशः पठामः. तत्र किञ्चित् सर्वे अवगच्छन्ति वा कथा?
आम् महोदय.
अस्तु अस्तु. हा, तत्र सम्भाषणम् अस्ति, अध्यापकः अपि छात्रः. अस्तु, तत्र कः पठित्वा? हा, नरेश् महोदय तत्र आरम्भं करोति वा पङ्क्तिशः?
काचित् कक्ष्या, एकं कक्षा अस्ति,
एकः वर्गः अस्मिन् अस्माकं वर्गः तादृशः.
अध्यापकः ईश्वरनिन्दकः.
ईश्वरनिन्दकः इत्युक्ते?
सः ईश्वरं निन्दति.
हा, ईश्वरस्य निन्दनं करोति. हा,
सः कदाचित् अवदत् ईश्वरः पक्षपाति. अध्यापकः अवदत् ईश्वरः पक्षपाती अस्ति. तस्य सृष्टिः न श्रेष्ठा. ईश्वरस्य सृष्टिः सः कृतवान् तत्तु श्रेष्ठा नास्ति.
तत्र श्रेष्ठा इति अस्ति, तद् दृष्ट्वा सृष्टिः इति पदस्य लिङ्गं किम् इति वक्तुं शक्नुमः वा?
सृष्टिः स्त्रीलिङ्ग अस्ति.
हा, मतिशब्दवत् अस्ति. श्रेष्ठ इति किं भवति? विशेषभावः. समीचीनं. हा, तत्र पक्षपाती अपि तत्र अग्रे आगच्छति. पक्षपाती अपि पुल्लिङ्गपदम् अस्ति तत्र. पाती इति नदी शब्दवत् अस्ति, किन्तु दीर्घ इकारः अस्ति, किन्तु पुल्लिङ्गपदम् अस्ति. हा,
ईश्वरः पुल्लिङ्ग अस्ति. सज्जनान् सज्जनान् एव दुर्जनान् अपि सृजति सः. अध्यापकः वदत् ईश्वरः सज्जनान् सृजति अपि दुर्जनान् सृजति. सः निष्पक्षपात व्यवहारवान् यदि स्यात् तर्हि दुष्टानां सृष्टिं निवारयितुम् अशक्षत् एव. अध्यापकः अवदत् यदि ईश्वरः निष्पक्ष अस्ति सः दुष्टानां सृजनं न करोति
एव इति. किन्तु दुष्टाः सन्ति लोके, अतः सः चिन्तयति ईश्वरः पक्षपाति इति. तत्र निष्पक्षपातव्यवहारवान् इति, तत्र तद् भवान् शब्दवत् अस्ति. निष्पक्षपाति व्यवहारवत् प्रथमविभक्तो निष्पक्षपातिव्यवहारवान् व्यवहारवन्तौ व्यवहारवन्तः इति. सप्तमविभक्तिरूपं भवति व्यवहारवति. भवती शब्दवत् व्यवहार भवान् शब्दः भवति, तत्र व्यवहारवति इति. निष्पक्ष निष्पक्षपातव्यवहारवति ईश्वरे मम विश्वासः आदरः अस्ति इति वाक्यं भवति. अस्तु, समीचीनं महोदय. अस्तु, अग्रे तत्र वंशीसुधा भगिनी अग्रे तत्र किञ्चित् वदति वा?
तावता छात्रेषु कश्चन उत्थाय अवदत् श्रीमन् भगवता दृष्टाः न सृष्टाः दुष्टाः न सृष्टाः एव. तावता छात्रेषु इति सप्तमी विभक्तमस्ति महोदय. तावता इत्युक्ते तत् समये छात्रे तस्मिन् समये कश्चन उत्थाय उत्तिष्ठ लबन्तपदमस्ति. उत्थाय उत्तिष्ठ अवदत् वदति श्रीमन् भगवता दुष्टाः न सृष्टाः एव. भगवता इत्युक्ते तृतीयविभक्तौ अस्ति. दुष्टाः सृष्टि दुष्टाः कोऽपि नास्ति इति वदति महोदय.
तत्र अन्यरीत्या वक्तुं प्रयत्नं करोति वा? भगवान् भगवान्
भगवान् भगवस्य सृष्टिः दुष्टः नास्ति इति
भगवतः सृष्टौ तदेव तत्र कथायाः नाम अस्ति भगवतः सृष्टौ इति षष्ठी किन्तु अन्यरीत्या अपि वदतु तत्र भगवान् इति उपयुज्य
भगवान् भगवान् सृष्टिः
दुष्टान्
दुष्टान् आम् महोदय भगवान् सृष्टिः दुष्टान् नास्ति इति
मन्ये न भगवान् दुष्टान् तत्र भगवान् इति प्रथमविभक्तिरूपम् अस्ति खलु भवान् इति भगवान् दुष्टान् इति इदानीं दुष्टान्
बहुवचने द्वितीयविभक्ति अस्ति
विभक्ति हा न सृष्टवान् न सृष्टवान्
आम् महोदय
भगवान् दुष्टान् न सृष्टवान्
सृष्टवान्
तादृशरूपमपि खलु तदेव अर्थः अस्ति अस्तु अग्रे
कथम् एवं वदति भवान् लोके असङ्ख्याः दुष्टाः ये दृश्यन्ते ते केन सृष्टाः भगवता एव ननु अध्यापकः प्रतिप्रश्नम् अकरोत् छात्रः वदति न अध्यापकः वदति कथम् एवं वदति भवान् अध्यापकः पृच्छति लोके असङ्ख्याः दुष्टाः दृश्यन्ते
ते
इत्युक्ते बहुवचने अस्ति महोदय
ते इति पदस्य अन्वयः कुत्र अस्ति इत्युक्ते तस्य सम्बन्धः ते इत्युक्ते के
दुष्टाः महोदय
ते दुष्टाः
केन सृष्टाः इत्युक्ते किं सृष्टवन्तः
कः सृष्टवान्
कः सृष्टवान् आं महोदय भगवता एव ननु अध्यापकः वदति भगवान् एव
तान् सृष्टवान्
अध्यापकः प्रतिप्रश्नम् अकरोत् अध्यापकः प्रतिप्रश्नं कृतवान्
समीचीनं भगिनि समीचीनं धन्यवादः अग्रे शोभा भगिनी
ते भगवता एव सृष्टाः इति तु सत्यं किन्तु ते सृष्टाः न दुष्टत्वेन छात्रः वदति ते दुष्टाः जनाः भगवान् एव
ते भगवता एव सृष्टाः अथवा भगवान् एव दुष्टान्
ते इत्युक्ते तत्र दुष्टाः ते भगवता एव सृष्टाः भगवान् एव दुष्टान् अपि
अत्र सृष्टवान् इत्युक्ते कर्मपदं भवति भगिनि तत्र भगवान् इति कर्तृपदं भवति अत्र कर्मणि प्रयोगः तादृशरूपम् अस्ति
आम् महोदय भगवता तृतीया अस्ति ते भगवता एव सृष्टाः उत्तरमस्ति अध्यापकस्य प्रश्नस्य दुष्टान् किं
कः
सृष्टवान् ते अपि भगवता एव सृष्टाः इति तु सत्यम् इति सत्यमस्ति भगवान् एव सृष्टां कृतवान् किन्तु ते सृष्टाः न दुष्टत्वेन सृष्टां कृतवान् किन्तु दुष्टत्वं तान् भगवान् न दुष्टत्वेन सृष्टिं न कृतवान्
यथा वयं दृष्टवन्तः खलु तत्र भवती उक्तवती खलु कुशलता तस्मिन् अस्ति इति अत्र दुष्टेषु
दुष्टत्वं
भगवता नास्ति
भगवता नास्ति विलक्षणः वादः तव
दुष्टत्वम् इति तत्र भावः दुष्टत्वं यथा तत्र कुशलं सहकुशलः कुशलता इति अस्ति तत्र तस्य भावः तत्र कुशलता वक्तुं शक्नुमः कौशल्यम् इति वक्तुं शक्नुमः सुन्दरः तत्र सौन्दर्यं सुन्दरता इति तादृश तत्र दुष्टत्वम् इति अग्रे
विलक्षणः वादः तव अध्यापकः वदति तस्य वादः वादं
विलक्षणः कः
विलक्षणस्य महोदय
विलक्षणः अपि वादः सम्बन्धः कः
विशेषस्य विशेषणमस्ति महोदय विशेषं वादः विशेषणं विलक्षणः तव
तत्र विलक्षणम् इति विलक्षणः इत्युक्ते कोऽपि वदति वा किम् अस्ति विलक्षणं
लक्षणं नास्ति
विलक्षणं डिफ्रेण्ट् क्यूरियस् डिफ्रेन्स् डिफ्रेन्स् इति तत्र यदि यदि पदार्थौ द्वौ स्तः तत्र वयं वदामः एषः पदार्थः अन्यात् विलक्षणः अस्ति इट् इस् डिफ्रेण्ट् इति
वादः महोदय वादः इत्युक्ते
वादः युवर् आर्ग्युमेण्ट् अथवा अत्र युवर् स्टेट्मेण्ट् विलक्षणः वादः तव
हिन्दीयाम् अस्ति वाद एव तदेव अर्थः
दुष्टत्वेन न सृष्टाः इत्यस्य कः आशयः पूर्णतया पठित्वा वदामि वा महोदय दुष्टत्वेन न सृष्टाः इत्यस्य कः आशयः तेषां स्रष्टा ईश्वरः एव इत्यतः तेषु स्थिताः दोषाः अपि ईश्वरकारणात् एव आगताः ननु इति अध्यापकः प्रश्नति पृच्छति दुष्टत्वेन न सृष्टाः इत्यस्य कः आशयः किमर्थं चेत् अध्यापकः वदति ते जनाः भगवता सृष्टाः एव किन्तु दुष्टत्वेन कथं न सृष्टाः किमर्थं चेत् तेषां स्रष्टा ईश्वरः एव इत्यतः तेषु स्थिताः दोषाः अपि ईश्वरकारणात् एव आगताः किमर्थं ईश्वरः तेषां सृष्टिं कृतवान् तत् कारणात् किमपि
तस्मात्
कारणात् किमपि तेषां गुणाः सन्ति ते गुणाः अपि ये गुणाः सन्ति ते गुणाः अपि ईश्वरस्य एव दत्तमस्ति किमर्थं चेत् सृष्टि सः एव कृतवान्
समीचीनं भगिनि तदेव अर्थः अत्र समीचीनं
तेषां स्रष्टा इत्युक्ते यः सृष्टिः करोति सः स्रष्टा
समीचीनं भगिनि समीचीनम् अस्तु अग्रे तत्र उषा भगिनी पठति वा
श्रीमन् लोके अन्धकारः अस्ति इत्यत्र किं भवान् विश्वस् श्रीमन् लोके अन्धकारः अस्ति अद्य छात्रः
पृच्छति इदानीं
श्रीमन् लोके अन्धकारः अस्ति इत्यत्र किं भवान् विश्वस्थितिः
विश्वसिति इति किम् अस्ति, कोऽपि वदति वा?
विश्वासं करोति
अस्ति अस्ति न वा इति, विश्वासं करोति वा इति.
लोके
अन्धकारः अस्ति न वा इति भवतः अभिप्रायः कः इति?
लोके सप्तमी विभक्ति अस्ति अत्र, अन्धकारः लोके अस्ति, अस्मिन् तस्मिन् विषये विश्वासं
भवतः विश्वासः अस्ति वा इति,
भवतः विश्वासम् अस्ति वा इति
इति प्रश्नः
पृच्छति.
प्रश्नं पृच्छति
न, यतः मया अपि तर्कशास्त्रं पठितम् अस्ति.
तर्कशास्त्रम् इति कोऽपि जानाति वा किम् अस्ति तर्कशास्त्रम्? न्यायदर्शनम् इति लाजिक् अथवा आर्ग्युमेण्ट् इति तद् अस्ति, किन्तु न्यायशास्त्रम् इति तत्र स्वरूप महोदयस्य वर्गः अस्ति. तत्र तर्कशास्त्रम् इति पुस्तकम् अन्नं भट्ट तर्कसङ्ग्रहः तर्कशास्त्रस्य पुस्तकम् अस्ति तत्र. अतः तत्र अत्र अन्धकारः अस्ति न वा इति, लोके किं किम् अस्ति इति तदेव तर्कः अस्ति. किं किम् अस्ति किं किं महोदय? अस्तु अस्तु अस्तु, किन्तु किन्तु अत्र पश्यामः कथायाम्. अत्र न्यायशास्त्रस्य कथा इति नास्ति खलु? न्यायशास्त्रम् अस्ति किन्तु न्यायशास्त्रस्य कथा नास्ति. अस्तु सत्यं.
यतः मया अपि तर्कशास्त्रं पठितम् अस्ति, गुरु अध्यापकः उक्तवान् अहमपि तर्कशास्त्रं
पठितवान्.
प्रकाशस्य अभावः एव अन्धकारः. प्रकाशस्य
अभावः इत्युक्ते यत्र नास्ति अभावः इत्युक्ते एब्सेन्स् आफ् इति.
प्रकाशस्य अभावः एव अन्धकारः. अन्धकारनामकः पदार्थः पार्थक्येन नास्ति. प्रकाशस्य अभावः एव अन्धकारः. तत्र प्रकाशम् अस्ति न अस्ति, तत्र अन्धकारः अस्ति. अतः अन्धकारनामकपदार्थः
पार्थक्येन नास्ति इत्युक्ते तत्र किं पदार्थः अस्ति, तत्र घटः अस्ति, एतद् पुस्तकम् अस्ति, उत्पीठिका अस्ति अस्ति अस्ति, एतत् सर्वम् अस्ति. किन्तु अभावः किं सूचयति? यद् नास्ति तत् सूचयति. अतः वयम् अभावः अस्ति इति वदामः, किन्तु तत् तत्र किमपि नास्ति खलु? घटः अस्ति, घटः इदानीं नास्ति चेत् तत्र किमपि नास्ति. घट अभावः अस्ति इति वदामः, किन्तु वस्तुतः तत्र किमपि नास्ति. अतः तत्र अभावः इति एब्सेन्स् इति, अतः तद् इट् इस् नाट् सम्थिङ्ग्, इट् इस् एब्सेन्स् आफ् सम्थिङ्ग्. अतः तत्र तादृश किमपि नास्ति, पार्थक्येन पदार्थः नास्ति. इट्स् नाट् सम्थिङ्ग् दट् वी केन् सी इन् द वर्ल्ड् इति तादृशम्. अस्तु अग्रे भगिनि.
शैत्यनामकस्य पदार्थस्य विषये भवतः अभिप्रायः कः? शैत्यनामकस्य इत्युक्ते शैत्यं, कोल्ड्,
शैत्यं, शीत शैत्यम् इति तादृश एव, तत्र सामर्थ्यं, सौन्दर्यम् इति तादृशपदम्.
नामकस्य पदार्थस्य विषये भवतः अभिप्रायः कः इति छात्रः पृच्छति.
सत्यं सत्यं.
शैत्यमपि न पदार्थः, यत्र उष्णता न भवति तत्र दृश्यते शैत्यं. शैत्यमपि न पदार्थः अस्ति. अध्यापकः
वदति, अध्यापकः वदति शैत्यम् इति पदार्थः न, तत्
यत्र उष्णता न भवति तत्र दृश्यते शैत्यं.
तत्र आङ्ग्ल यत्र उष्णता नास्ति, उष्णतायाः अभावः एव शैत्यम् इति. यत्र किमपि न किमपि वस्तु नास्ति तत्र अभावः इति वदामः, तत्र उष्णतायाः अभावः एव शैत्यम् इति.
अतः उष्णतायाः अभावः एव शैत्यपदेन निर्दिश्यते. सः पृथक् पदार्थः न.
तद् अस्ति इति न वक्तुं शक्नुमः. केवलम् अन्यत् किमपि अन्यत् कोऽपि पदार्थः नास्ति इति एव तेन सूचितम्. उष्णता शैत्यम् इति पदेन उष्णता नास्ति इति सूचितम् अस्ति इति अध्यापकः वदति. हा अस्तु, अग्रे मेहुल् महोदय.
महोदय एकः प्रश्नः, महोदय पार्थक्येन इति पदं
पार्थक्येन तत्र
महोदय
तत्र तु पृथक् पदार्थः न,
अत्र तदस्ति तत्र पृथ्वी इति तत्र अत्र तु यथा वयं दृष्टवन्तः खलु सामर्थ्यं तादृशे एव अत्रापि पार्थक्यम् इति पदार्थस्य भावः तत्र
क्वालिटि आफ् बीङ्ग् सेपरेट्.
हा
तत्र क्षम्यतां रघुपतिमहोदय यद् वदति तत् समीचीनमेव अहं चिन्तयामि
महोदय.
पदार्थः पार्थक्येन नास्ति, पार्थक्यं तु पदार्थः एव अस्ति एव, एतत् नास्ति
पार्थक्यं. पार्थिवपदार्थस्य पार्थक्यम् अस्ति, भाषाशास्त्रे वयम् अधीतवन्तः किञ्चित्.
समीचीनं समीचीनम् अस्तु अस्तु. हा अग्रे गीतञ्जलि भगिनि.
लोके यथा अन्धकारनामकः शैत्यनामकः वा पदार्थः नास्ति, तथैव दुष्टाः अपि न सन्ति एव भगवतः सृष्टौ. लोके इत्युक्ते सप्तमे, लोके यथा अन्धकारनामकः शैत्यनामकः वा, अपि च द्वे भाव
पदार्थः तत्र पुल्लिङ्गे अस्ति,
द्वौ पदार्थौ लोके यथा द्वौ पदार्थौ पदार्थद्वयं नास्ति तथैव अथवा अतः दुष्टाः अपि
तथा एव
दुष्टाः अपि न सन्ति एव भगवतः सृष्टौ.
यथा वयं तत्र अन्धकारः इति वदामः, किन्तु तद् किम् अस्ति, प्रकाशस्य अभावः अभावं सूचयति. शैत्यम् इति वदामः, किन्तु तत् किं सूचयति,
उष्णतया अभावः अभावं सूचयति. तथैव दुष्टत्वम्
एकः अभावः अस्ति, पदार्थः नास्ति, अभावः अस्ति.
अस्तु महोदय,
एब्सेन्स् आफ् समथिङ्ग्, नाट् प्रेजेन्स् आफ् समथिङ्ग् इति. अस्तु, तत्र समयः इदानीं नास्ति, अग्रिमवर्गे तत् कुर्मः, किञ्चिदेव अस्ति. हा किन्तु अस्तु, अर्धभागं कृतवन्तः, समीचीनमेव. अस्तु अस्तु, प्रश्नः अस्ति वा अत्र?
न महोदय, अत्र उष्णस्य अभावः शैत्यम् अस्ति, शैत्यस्य अभावः उष्णं भवति वा?
न न न, तादृशं नास्ति नास्ति. पदार्थः यः अस्ति तद् तदेव, तद् अभावः गुणः नास्ति, अभावः अभावः एव.
अभावपदार्थः अस्ति, शैत्यस्य अपोजिट् अस्ति उष्णम्, अतः शैत्यस्य अभाव उष्णं भवति वा इति विषयान्तरमस्ति.
हा विषयान्तरम् अस्ति, अभावस्य अभावः इति. अस्तु, तद् तदपि अस्ति, किन्तु इदानीम् अस्तु. अस्तु
महोदय, मम अवगमनार्थं पृच्छामि, पार्थक्य इत्युक्ते स्पोकन् संस्कृत् मध्ये डिफरेन्स् वेरैटि इति एव दत्तमस्ति, कृपया
अत्र अहं चिन्तयामि पदार्थः पार्थक्येन नास्ति इति. तत्र डिफरेण्ट्, तत्र देर् इस् नो, देर् इस् नाट् अ पदार्थ वित् नेम् अन्धकारः, डार्क्नेस् इति. तद् देर् इस् नो पदार्थः
इति.
एकः पदार्थः अस्ति, एकः पदार्थः नास्ति, तुलना अस्ति.
पृथक्
पृथक् इति पदस्य इति तस्य भावं पार्थक्यम् इति अपि तदपि भवति.
अव्ययम् अस्ति महोदय, पृथक्कस्य अव्ययम् अस्ति अत्र भवति वा?
तस्य भावः तु अन्यत् अस्ति खलु महोदय, पार्थक्यम् इति अन्यत् अस्ति, पृथक् इति न, तत्र पार्थक्येन इति, तत्र विभक्ति अन्यपदस्य अस्ति खलु. अत्र कथायाम् अहं चिन्तयामि पार्थक्येन इत्युक्ते डिफरेण्ट् सपरेट् पदार्थः इति मन्ये अत्र.
समीचीनमेव भवतः.
अस्तु, अन्यः प्रश्नः अस्तु, विरमामः. तर्हि अग्रिमवर्गे मिलामः. सर्वेभ्यः नमस्कारः, धन्यवादः.
धन्यवादः
भगिनी. समीचीनं वा
महोदय?